सद्योः जातो वृषभः कनेन प्रभर्तुमा वदन्तः सुतस्य साधोः पीप प्रतिकामम् यथा ते रसा शिरः प्रथमम् सोम्यस्य यज्ञास्ततः रस्य कामेन सोऽप्येजोषामपि भोगिरिष्ठा माता परिजोषा जनित्रे महः पितर्दमासिंसदग्रे उपस्थाय मातरमन्न मेट्टदिग्मम पश्यदभि सोममूधाः प्रजापयन्नतरद्गृत्सो अन्यान् महानी चक्रे पुरुध प्रतीकः उग्रस्तु राशालभिभूत्यो जायथा वसन्तन्वन् चक्रजेषः पृष्टा रविन्द्रो जनुषा विभूजामुष्या सोममभिपच्चमूषु सुनम् भूमेम मघवा नविन्द्रमस्मिन्भरे नृतमम् वाच सातौ शृण्वन्तमुग्रमूतये समत्सुघ्नन्तम् वृत्राणि सञ्चितम् धनानाम् संसा महामिन्द्रम् यस्मिन् विश्वा दृष्टयः सोमपाः काममव्यन् यम् सुक्रतुम् धिरणे बिभदष्टम् घनम् वृत्राणाम् जनयन्तदेवाः यन्ननगिः प्रदानासु स्वराजम् विदातराजकृतमम् हरिष्ठाम् जिनतमः सत्त्वभिर्योः सूषैः प्रथुद्रया अविनादाजुर्दस्योः सा मृत्सुतरनिर्नार्वा व्यानसीरोदासी मेहनावान् भगो नकारे हव्यो मदीनाम् पिते वचारुः सुहवो वयोधाः धर्ता दिवो रज सस्पृष्टभूर्ध्वो रथो न वाजुर्वसुभिर्नियुत्वान् क्षपाम् हस्ता जनिता सूर्यस्य विभक्ता भागम् धिषणे ववाजम् सुनम्भूमेव मघवानमिन्द्रमस्मिन्भरे नृतमम् वाज सातौ शृण्वन्तमुग्रभूतये समत्सघ्नन्तम् वृत्राणि सञ्चितम् धनानाम् इन्द्रस्वाहा विभदयस्य सोम आगत्यातुम् रा वृषभो मरुत्वान् ओरुव्यजाः प्रणता मेभिरन्नैरास्य हविस्तन्वा अकाममृद्ध्याः आदेशपर्यो यवसे युनज्ञेयोरनः प्रतिपः सृष्टिमावाः इहत्वाधेजुर्हरजस्तु चि प्रपिपात्वा अस्य सुषूतस्य दारोः गोभिर्ममिक्षुम् दधिरे सुपारमिन्द्रम् ज्येष्ठ्या यथा जसे गृणानाः नन्दानः सोमम् प्रपिवाङ्गेजेषन् समस्मभ्यम् पुरुधा गायेषण्य इमम् कामम् मन्दजागोभिरस्वैश्चन्द्रवताराधसपप्रथश्च स्वर्गवामतिभिस्तुभ्यम् विप्रायिन्द्राय वाह कुशिकासो अक्रन् सुरम्भो वेम मघवानमिन्द्रमस्मिन्भरे नृतमम् वाज सातौ शृण्वन्तमुग्रमूतये समत्सुघ्नन्तम् वृत्राणि सञ्चितम् धनानाम् ऋषणीधृतम् मघवानमुख्या अमिन्द्रम् गिरो बृहतीरभ्यनूषत वावृधानम् पूर्वभूतम् सुव्यक्तिभिरमर्त्यम् चरमानम् दिवे दिवे शतक्रतुमन्नवम् साकिनम् नरम् गिरो मयिन्द्रमुपयन्ति विश्वताः वाजसनिम् पूर्भिदम् तूर्णिमप्तुरम् धामसा चमभिषाचम् सर्विदम् आकरे वसो दिलितापनस्य ते नेहसस्तु भयिन्द्रो दुवस्यति इमस्वदस्वदनाहि विप्रिये सत्रासाहमभिमादिहनम् स्तुहि गृणामुत्वामृतामलङ्गीर्भिरुक्तैरभिप्रभीरमर्चता सबाधाः सन्दहादे गुरुमाजोजीहि ते नमो अस्य प्रतिभजे कजीषे भूर्वीरस्य निश्रिधो मर्त्येषु भूवसूनि पृथिवी बिभर्ति इन्द्रायद्या भवोषधीर्लापो रयिम् रक्षन्ति गिरयोवनानि तुभ्यम् ब्रह्माणि गिर इन्द्र तुभ्यम् सत्रादधिरे हरिवो जुषस्व भोभ्या आविरवसो नूतनस्य सखे वसो जरिद्रभ्योपयोधाः इन्द्रमरुत्वयिह वायो मञ्जथाचार्याते अभिवस्सुकस्य तव प्रणीतेतव सूरसर्मन्नामे वासन्ति कवयस्तु यज्ञाः समावसान इह पाधिरोमम् मरुद्भिरिन्द्रसखेभिः सुतम् नाः जातम् यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे आप्तूर्ये मरुत आपिरेषो मन्दन्निन्द्रमनुदातीवाराः तेभिः साकम् पीपतु वृत्रघातः सुतम् सोमम् दातुषस्वे सधस्ते इदम् ह्यन्वोजसा सुतम् राधानाम् पते त्वा अस्य गिर्वणः यस्ते अनुस्वधामसत्सुते नियच्छतन्वम् सत्त्वा ममत्तु सोम्यम् रते अस्मोतु कुक्षोप्येन्द्रब्रह्मणाशिराः बाहूसूरराधसे ध्यानावन्तम् करम्भिणमभूपवन्दमुत्थिनम् इन्द्रः प्रातर्जूषस्वनः पुरोणासम् पचत्यम् जुषस्वेन्द्रागूरस्व च तुभ्यम् हव्यानि सिस्रते पुरोणासम् च नोभसो जोषयासे गिरश्च नः मधूयुरिवयोषणाम् पुरोणासम् सरस्रुतप्रातः सा वेजूषस्वनः इन्द्रक्रतुर्हिते बृहन् माध्यम् दिनस्य समानस्य धाराः पुरोणा च मीन्द्रकृष्वेह चारुम् त्रयस्तोताजरिता तूर्ण्यर्थो वृषायमानमुपगीर्भिरीट्टे क्रिये धानाः समने पुरुष्टुतपुरोणा समाहूतम् मामहस्वनः भुवन्तम् वाजवन्तम् त्वागभे प्रयस्तन्तमुपशिक्षेमधीतिभिः ऊषण्वते तेजकृमाकरम्भम् हरिवते हर्यस्वायधानाः अपूपमध्यसगनो मरुद्भिः सोमम् विभवृत्रः सूरविद्वान् प्रतिधानाभरदतूयमस्मै पुरोरासम् वीरतमाय नृणाम् दिवे दिवे सदृशीरिन्द्रतुभ्यम् वर्धम् दुत्त्वा सोमपेयाय धृष्णो इन्द्रापर्वता बृहता रथेन वामीरिषावहतम् सुवीराः वीरम् हव्यान्यध्वरेषु देवावर्धे ताङ्गेभिर्लयावदन्ता तिष्ठा सुखम् मघवन्मापराधा स्वमस्य नत्वा सुषूतस्य यक्षि विदुर्नमित्रस्य च मारभेद इन्द्रस्वादिष्ठया गिरास जीवः संसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवामजुष्टम् एदम् बर्हिर्यजमानस्य सीताथा च भूदुःखमिन्द्राय सस्तम् ध्यायेदस्तम् मघवांसे द्वयो निस्पदित्वा युक्ता हरयो वहन्तु यदा कदा च सुनवामसोममग्निष्ट्वा धूतो धन्वात्यच्छ परायाहि मघवन्ना च याहीन्द्रभ्रातरुभयत्रा ते अर्थम् यत्रा रथश्च बृहतो निधानम् विमोचनम् वाजिनो रासभस्य अपास्वमस्तमिन्द्रप्रजा हि कल्याणीर्जायासुरनम् गृहेते यत्रा रथस्य बृहतो निधानम् विमोचनम् वाजिनो दक्षिणावत् इमे भोजा अङ्गीरसो विरूपादिवस्पुत्रासो असूरस्य वीराः विश्वामित्राय ततो मघानि सहस्रसावे प्रतीरन्तायुः रूपम् रूपम् मघवा वो भवीति भाजा कृण्वानस्तन्वा अम्बरिस्वा यद्दिवः परि मुहूर्तमाघा स्वैर्मन्त्रैरनृतुपारता वा महाङ्गृहिर्देवजा देवजूतोस्तभ्यात् सिन्धुमन्दवम् वृचक्षाः विश्वामित्रो यदवहत्सुधा समप्रियायत कुशिकेभिरिन्द्राः हंसा जीव कृणत श्लोकमद्रिभिर्मदम् गोगीर्भिरध्वरे सुते स च देवेभिर्विप्रारिषयो नृचक्षसो विपीबध्वम् कुशिकाः सोम्यम् वधु उपप्रेत कुशिकाश्चेतयध्वमस्त्वम् राजे प्रवञ्जता सुदासाः राजा वृत्रम् जङ्घनत्रागपागुदगता यजा देवरा पृथिव्याः यजिमे रोदसी मुभे अहमिन्द्रमदुष्टवम् विश्वामित्रादरक्षते ब्रह्मेदम् भारतञ्जनम् विश्वामित्रारासत ब्रह्मेन्द्राय भज्रिणे करदिन्दस्सुराधरसः किम् ते कृण्वन्ति क्रीकाडेषु का भोलाशिरम् दुःख्रेण त भन्ति घर्मम् आणोभरप्रमागन्धस्य वेदो नैता साकम् माघवन् रन्धयानः सत्परीरमाजिम् बाधमाना बृहन्मीमायजमदग्निदत्ता आसूर्यस्य दुहिता तदानश्रवो देवेष्वमृतमधुर्यम् ससर्परीरभरत्तूज मेभ्योऽधिश्रवः पाञ्चजन्यासु वृष्टिषु सा भक्ष्या आनम् जमाजुर्दधानायाम् मे परस्तिरमदग्नयो ददुः शिरौ गावौ भवताम् वेरुरक्षो मेढा विवर्हिमायुगम् विशारि इन्द्रः पादल्ये दधताम् सवीतोरभिष्टने मे अभिनस्तजस्व बलम् देहि तनूषु न बलमिन्द्रा ननुत्सु नः बलम् तोकायतनयाय जीवसे त्वम् हि बलता असि अभिव्ययस्व खदिरश्च सा रमोजो देहि स्पन्दने शिंसपायाम् अक्षवीरो वीरितवीलयस्व मायामादस्मादवजीहि पो नः अयमस्मान्वनस्व धर्माचः माचरीरिषत् स्वस्य गृहेभ्यः वसा विमोचनात् इन्द्रोदिभिर्बहुलाभिर्ना अद्ययाच्छेष्टाभिर्मघवन् सूरजिन्द यो नोद्रेष्टधरस्तस्पदेष्टयमुद्युष्मस्तमु प्राणो जहातु रसुम् सिद्विदपतिसिम् बलम् सिद्विविश्चति मुखादिन्द्रजेषम् तीर्थयस्ताभेन पश्यति न सायकस्य जिगिले जनासो लोधम् नयन्ति पशुमन्यमानाः नावाजिनम् वाजिनाः सयन्ति न गर्दभम् पुरो अश्वान्नयन्ति इमयिन्द्रभरतस्य पुत्राभिभित्वम् चिगितुम् न प्रभित्वम् हिन्वन्त्यश्वमरनन्द नित्यम् ज्या वाजम् परिणयन्त्याजौ इमम् महेभिदच्छाय सूषम् सस्वत्र त्वयेड्याय प्रजभ्रुः शृणोतु नोदम्येभिरणीकैः शृणोत्वग्निर्दिव्यैरजस्रः महे महे दिवे अर्चा पृथिव्यै कामो मयिच्छम् च रति प्रजानन् ययोर्हस्तो मे विदधेषु देवाः स पर्यवो मादयम् ते स चायोः युवोरृतम् रोदसि सत्यमस्तु महेषु नस्तु विदाय प्रभूतम् इदम् दिवे नमो अग्ने पृथिव्यै च पर्यामि प्रजा सा जाभिरत्रम् उतो हि माम् पूर्व्या विभिद्रविता वरीरोदसी सत्यवाचाः नरश्चिद्वाम् समिधे सूरसादौ मन्दिरे पृथिविवे विधानाः को अद्धावेदक इह प्रवोचद्देवाङ्गच्छा पथ्या समेति रामपमासदांसि भरेषु जागुह्येषु व्रतेषु कविर्निचक्षा अभिषेमचष्ट ऋतस्य यो नाभिघृते वदन्ति नानाचक्राते सदनम् यथावे स मानेन क्रतूना संविधाने समान्याभियूते दूरे अङ्गे ध्रुवे पते तस्थतर्जागरूके उतस्वदा राजुपती भवन्ति आरुब्रुवादे मिथुनानि नाम निःश्वे देते जनी मा संविक्तो महो देवान् विभ्रदीनम् व्यथेते एतद्ध्रुवम् पत्यते विश्वमेकम् च रत्पदत्रिविषूणम् विजातम् सना पुराणमध्येम् यारान्महः पितुर्जनितुर्जामि तन्नाः देवासो यत्रापनिदारगे वैरुणौ पथिव्यूते तस्तु रन्दः इमम् स्तोमम् रोदसी प्रब्रवीम् युदूदरा शृणवन्नग्निजिह्वाः नेत्रः सम्राजो वरुणो युवानादित्यासः कवयः पप्रधानाः हिरण्यवाणिः सवितासु जिह्वस्त्रिरादिवो विदधे पत्यमानः देवेषु च सविदः श्लोकमश्रेरादस्मभ्यमासु सर्वतातिम् सुदृत्सु पाणिस्वृता वा देवस्तष्टावसेतानि नोधात् ऊषण्वन्तर्भवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट विद्युद्रता मरुतरिष्टिमन्तो दिवो मर्यारुतजातायासाः सरस्वती तृणवन्यज्ञया सोधातारयिम् सह वीरम् दुरासः विष्णम् स्तोमासः पुरुदस्ममर्कभगस्येव कारिणो यामनिग्मन् गुरुक्रमः कगुहो यस्य पूर्वीर्नमर्धन्ति युवत योजनित्रीः इन्द्रो विश्वैर्वीर्यैः पत्यमानमुभे आपप्रौरोदसीमहित्वा पुरन्दरो वृत्रः धिष्णुषेणः सङ्गृभ्यानाभरा भूरिपश्वः न सत्या मे पितरा बन्धुवृच्छा स जात्यमश्विनोश्चारुणाम युवम् हि स्थौरयुगौ नोरजीराम् रात्रम् रक्षेथे अकवैरदब्धा मम तद्वः कवयश्चारुणामयद्ध देवा भवथ विश्व इन्द्रे सखरुभिः पुरुहूत प्रियेभिरिमाम् धियम् सातये दक्षदानः हर्यमाणो अदीदर्यज्ञियासोदब्धानि वरुणस्य व्रतानि योत नो अनुहत्या निगन्तो प्रजावान्नः पशुमास्तु गातुः देवानाम् दूतः पूरुधः प्रसूतो नागान्नो वोचतु सर्वता शृणोतु नः पृथिवीद्यो ऋतापः सूर्यो नक्षत्रैरुर्वा अन्तरिक्षम् शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमासयिलयापदन्तः आदित्यैर्नो अदितिशृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् सदा सुखः पीतुमास्तु कन्थामध्वा देवावोषधीः सन्ति वृक्त भगवो मे अग्ने सख्येन वृद्ध्या उद्राजो अस्याम् सदनम् पुरुक्षोः स्वदस्वहव्यादिदेह्यस्मद्या अत्संमीमि हिस्रवांसि विश्वाङ्गग्ने भृत्सुताञ्जेषि शत्रूणः विश्वा सुमनादीदिहीनः पूर्वा अधयद्योषर्महद्विजज्ञे अक्षरम् पदे गोः मृता देवानाम मनुप्रभूषणम् महद्देवानाम सुरत्वमेकम् मोरु नो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः पुराण्योः सद्मनोः केतुरन्तर्महद्देवानामसुरत्वमेकम् इमे पुरुत्रापादयन्ति कामास्तम् यच्छादिद्ये पूर्व्याणि समिद्धे अग्रव्रतमिद्वदेव महद्देवानामसुरत्वमेकम् समानो राजा बिभृतः पुरुत्रा सजे सया सुप्रयूतो वनानु अन्यावत्सम्भर दिक्षेति माता महद्देवानामसुरत्वमेकम् आक्षिपूर्वास्वर अनुरुः सद्यो जाता सुतरुणीष्वन्तः अन्तर्वदी सुपते अप्रवीता महद्देवानामसुरत्वमेकम् स योः परस्तादधनद्वी माता बन्धनश्च रजिभत्सजेकाः नेत्रश्चरावरुणस्य व्रतानि महद्देवानामसुरत्वमेकम् माता होता विदथेषु सम्राणग्रन्थर दिक्षेति बुध्नः प्ररण्यानिरण्यवाचो भरन्ते महद्देवानामसुरत्वमेकम् सूरस्येव युध्यतो अन्तमस्य प्रतिचीरम् ददृशे विश्वमायत् अन्तर्मतिश्च रजनिष्ठिधङ्गोर्महद्देवानामसुरत्वमेकम् निरेवेदि फलितो दूतः स्वन्तर्महाश्च रजिलोचनेन बभूंषि बिभ्रदभिनो विचष्टे महद्देवानामसुरत्वमेकम् विष्णुर्गोपाः परमम् पातिपादः प्रिया धामान्यमृता दधानः अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम् नानाजक्रादेयम्या आपपोऽं श्रितयोरण्यद्रोचते कृष्णमन्यत् श्यावी चयतरूढी दस्वसारौ महद्देवानामसुरत्वमेकम् माता च यत्र दुहिता च धेनू स भद्दुघे धापयेते समीची ऋतस्य ते सदशीले अन्तर्महद्देवानामसुरत्वमेकम् अन्यस्या वत्सम् व्रीहतीमीमा यकया भुवानि दधे धेनुरूधाः ऋतस्य सापयसा पिन्वतेणाः महद्देवानामसुरत्वमेकम् अपद्यावस्ते पुरुरूपापपूं शोध्वातस्थोत्यभिमृहाना ऋतस्यद्वविचरामि विद्वान्महद्देवानामसुरत्वमेकम् पदेयैव निहिते तस्मे अन्तस्तयोरन्यद्गुह्यमाभिरन्यत् सद्धीजीनावध्या आसाविषूची महद्देवानामसुरत्वमेकम् आधेनवोऽधुनयन्तामसि स्वे स्वभर्दुघाः स्वसजा अप्रादुग्धाः नव्यानव्यायुपतयो भवन्तीर्महद्देवानामसुरत्वमेकम् यदन्यासो वृषभोरोरवीधितो अन्यस्मिन् यूथे निदधातिरेताः स हि क्षमावान् स भगस्व राजा महद्देवानामसुरत्वमेकम् ईरस्य न स्वस्यम् जना सकृणुवोचामविदुरस्य देवाः षोडायुक्ताः पञ्च पञ्चावहन्ति महद्देवानामसुरत्वमेकम् देवस्तष्टाः सविता विश्वरूपः पुपोषः प्रजा पूर्धा जान इमा च विश्वा भुवनान्यस्य महद्देवानामसुरत्वमेकम् महीसमीरश्चम् वा समीचि उभेदे अस्य वसूनान् दृष्टे शृण्वे वीरो विन्दमानो वसूनि महद्देवानामसुरत्वमेकम् इमाम् च नः पृथिवीम् विश्वधाया उपक्षेति हितमित्रो न राजाः पुरःसदस्तर्मसदो न वीरा महद्देवानामसुरत्वमेकम् निषिद्धरेस्तमोषधीरुतापो रयन्त इन्द्रपृथिवी बिभर्ति यस्ते वामभाजस्यामहद्देवानामसुरत्वमेकम् भद्रम् नो अपि वातजपनाः ओ हरिः ओ मेनन्ति मालिनो न धीरा व्रता देवानाम् प्रथमा ध्रुवाणि न रोदसे अध्रुवा भेद्याभिर्न पर्वतादिगमेतस्थिवांसाः षड्भाराण्येको अचरन् बिभद्रतम् वरिषष्ठमुपगावागुः तिस्रो महीरुपरा स्वस्तुरत्यागुहाद्वे निहिते दर्शेका नृपाजस्य वृषभो विश्वरूपभुत त्रिधा पूरुध प्रजावान् त्रिणीकः पच्यते माहीना वांसरेतोधा वृषभः स्वदीनान् अभीगासाम् पदवीरबोध्यादित्यानामक्वेतारुणाम आपश्चिदस्मा अरमन्तदेवीः पृथग्वजन्तीः परिणेव वृञ्जन् त्रिषधस्थासिन्धवस्त्रिष्ट वीणामुतत्री माता विदधेषु सम्राट् धृतावरीषनास्ति स्व अभ्यास्त्रिरादिवो विदधे पद्यमानाः त्रिरादिवस्य वितर्वार्याणि दिवे दिवासु भद्रह्मो अह्नाः त्रिधातु राज आसु भावसु निभगत्रा दर्धिगणे सातलेधाः त्रिरादिवस्य पितासोषवेधिराजाः नामित्रावरुणासु पाणि आपश्चिदः सरोदसेजु दुर्वीरत्रम् भिक्षन्दस पितुः समाज त्रिरुत्तमादूनसा रोचनानि त्वयोः राजन्त्यसूरस्य वीराः नगिषिरा दूरभाः शस्त्रिरा दिवो विदथे सन्तु देवाः रमे विभिक्वाङ्गाविदम् मनीषाम् धेनुम् चरम् चीम् प्रयुधामगोपाम् सद्यश्चिद्यादुजुहे भूरि धातेरिन्द्रस्तदग्निः पाणिकारो अस्याः इन्द्रस्तु कूटामृषणासुभस्ता दिवो न प्रीताः सयम् दुःख्रे विश्वे यदस्याम् नृणयम् तदेवाः प्रवोत्र वसवः सुम्नमस्या या जापजो वृष्ण इच्छन्ति सत्यम् नमस्यम् तेऽर्जानते गर्भमस्मिन् अच्छा पुत्रम् धेनवो वावसानामनश्चरन्ति बिभ्रतम् वपूंषि अच्छा व्यग्विरोदसि सुमेघे ग्राम्णो युधानो अध्वरे मनीषा इमाभूतेमन वे भूरि वारा भूर्ध्वा भवन्ति दर्शदा गजत्राः याते जिह्वा मधुमति सुमेधा अग्नेः देवेषोच्यत गुरुचि तयेह विश्वाङ्गवसेजत्राणासादय पायया चामधूनि याते अग्ने पर्वतस्य वधारासश्चन्ति पीपयद्देव चित्रा मस्मभ्यम् प्रमदिम् जातवे दोपसोरास्व सुभतिम् विश्वजन्या धेनुः प्रत्नस्य काम्यम् दुहानान्तः पुत्रश्च रजिदक्षिणायाः आद्योदयम् वहति शुभ्रजा मोषधस्तोमो अश्विना वजीगः सुयुग्वहन्ति प्रतिभामृतेर्वोर्ध्वा भवन्ति पितरेः भवेधाः जनेधामस्मद्विपणेर्मनीषाम् युवोरवश्च कृमायातमर्वाणि सुयुग्भिरस्वैः सुहृदारथे रथस्राभिमाम् स्वगमग्रेः किमङ्गपाम् प्रत्यवर्तिम् गमिष्ठाहुर्विप्रासोऽश्विना पुराजाः आमन्ये दामगदम् कश्चिदे वैर्विश्वे जनासो अश्विना भवन्ते इमाहिवाङ्गोरुजिगामधूनि प्रमित्रादोनदधुरुस्रो अग्रे चिरः पुरोजिदश्विनारजां स्याङ्गूषो वां मघवानाजनेषु ये हयादम् पतिभिर्देवजानेर्दस्राभिमेवाम् निधयो मधूनाम् णोकः सख्यम् शिवम् वाम् इवोर्न रात्रमेनम् जह्नाव्याम् पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सहनूषमानाः अश्विना वायुना युवम् सुदक्षा नियुद्भिश्च सजोषसा युवाना न सत्यातिरो अह्नम् जुगाना सोमम् विपदमसृधा सुदानु अश्विना परिभामिषः पुरुचिरेजर्गेर्भिर्यतमाना अमृध्याः अथो हवामृतजा अद्रेजोतः परिद्या वा पृथिवीयादि सद्यः अश्विना मधुषुत्तमो युवाकुः स्वमस्तम् वा तमागतम् दुरोणे रथोहवान् भूरिवर्पः करिक्रत्सुतावतो निष्कृतमागमिष्टः मित्रो जनान्यादयति ब्रुवाणो मित्रो दाधार पृथिवीमुदद्या मित्रः कृष्टेरणिमिषाभिचष्टे मित्राय हव्यम् घृतवज्जुहोत प्रदमित्रमर्तो अस्त्वप्रयस्वान्यस्त आदित्यशिक्षतिम् व्रतेन न हन्यतेन जीयते त्वतो नैरम्भो अश्नात्यन्ते तो न दूरात् मनमेवासगिलयामदन्तोमितज्ञो वरि मह्ना पृथिव्याः आदित्यस्य व्रतमुपक्षियन्तो वयम् मित्रस्य सुमतौ स्याम अदम् मित्रो नामस्य सुसेवो राजा सुक्षत्रो अजनिष्टभेदाः अस्य वयम् सुमतो यज्ञ यस्यापि भद्रे सौ मनसे स्याम महादित्यो नमासो वसद्यो जातयज्ञनो गृणते सुसेवाः तस्माजेतत्पन्यतमायजुष्टमग्नो मित्राय हविराजु होत मित्रस्य दर्शनीहृतो वो देवस्य सानसि युम्नम् चित्रश्रावस्तमम् अभियो वाहिनादिवम् मित्र बभूव सप्रथाः अविश्वरोऽभिपृथिवीम् मित्राय पञ्चाजेऽपि वेदना अभिष्टे सवसे देवान्विश्वान् विभर्ति मित्रो देवेष्वायुषुजनाज वृक्तपरिहिषे इष इष्टव्रताकः इहेह भोमनसा बन्धुता नरवसुजो जग्मुरधिका निवेदसा याभिर्मायाभिप्रति ज्योतिमर्पदः सौधन्वना यज्ञियम् भागमानसा याभिस्तजेभिस्तमसा अपिंसतजया धिया कामरिणि दचर्मणः ये नगरी मनसा निरदक्षततेन देवत्वमृभवः समानस इन्द्रश्च सख्यमृभवः समानसन्मनोर्नपातो अपसो दधन्विरे सौधन्वनासो अमृतत्वमेरीरे विष्णे समेभिः सुकृतः सुकृत्यया इन्द्रेण जात सरथम् सुते स चान्वथोऽवसाना भवतः सहस्रिया नवः प्रतिमैषु कृतानि वागतः सौधन्वनानुभवो वीर्याणि च इन्द्ररुभिर्वाच बद्भिः समुक्षितम् सुतम् स ममावृषः स्वागभस्योः धियेषामगमन्धाजुषो गृहे सौधन्वनेभिः स्वगमत्स्वामिभिः इन्द्ररुभुमान् वाजवान्मत्स्नेहनोऽस्मिन् सवने सच्चा पुरुष्टुल इमानि तुभ्याम् सराणि ये मिरेर्भरा देवानाम् मनुषश्च धर्मभिः इन्द्ररभुभिर्वाजभिर्वाजयन् निःस्तामम् धरितुरुपजाहि यज्ञियम्
शतम् केतेभिर्हृदेभिराजवे सहस्राणि सो अध्वरस्य होमानि उषो वाजेन वाजिनि प्रचेतास्तोमम् जुणस्व गृणतो माघोनि पुराणि देवि युगतिः पुरम् धिरणव्रतम् च रसि विश्ववारे उषो देव्यमत्याभिभाहि चन्द्ररथा सूनृता जीरयन्ति आत्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णाम् पृथुपा च सोजे उषः प्रजेचे भुवनानि विश्वोद्वातिष्ठस्य मृतस्य केतुः समानमर्थम् चरणीयमानाशक्रमीवनम् यस्यावृत्स्व अवस्योमेव जिन्वति मघोन्युषायादिश्वसरस्य पत्नी स्वा अर्जनम् ते सुभगा सुतम् सा आन्ताद्दिवः पप्रथा पृथिव्याः अच्छावो देवे मुषसम् विभातीम् प्रवो भरध्वम् नमसासुभृत्यम् ऊर्ध्वम् दुधादिविपाजो अस्रेन्द्रो चरारुरुच रण्वसम् दृग् ऋतारेवो अर्कैरबोध्या रेवतीरोदसे चित्रमस्तात् आयते मग्नपुषसम् विभातीम् वाममे क्षिद्रवीरम् भिक्षमाणः ऋतस्य बुध्नपुषसामिषञ्जन् दृढा महीरोदसी आविवेश मही मित्रस्य वरुणस्य माया चन्द्रेव भानुम् विदधे पुरुद्रा इमावो वाम् भ्रमजो मन्यमाना युवावतेन तुज्या अभूवन् अत्यदिन्द्रावरुणागशो वाम् येन स्मासिनम् भरतः सखिभ्यः अजमो वाम् पुरुतमो रजेयाञ्छस्वत्तमपरासे जोहवीति सजोडाविन्द्रावरुणा भरद्भिर्दिवा पृथिव्यानुतम् हवम् मे अस्मे तदिन्द्रावरुणापशिष्यादस्मे रजिर्मारुतः सर्ववीरः अस्मान्वरोत्रेश्वरणीरवन्त्वस्मान् होत्रा भारते दक्षिणाभिः बृहस्पते जुगस्तनो हव्यानि विश्वदेव्य स्वरत्राणि दासुषे शुचे मर्कैर्बृहस्पति मध्वरेषु नमस्यत नाम्यो जाजके ऋषभम् च ऋषणीना विश्वरूपपदाभ्यम् ऋषस्वदिम्बरेण्यम् इयम् ते पूषन्नाघृणे सुष्ठुतिर्देवनव्यासि अस्माभिस्तुभ्यम् सस्यते ताञ्जोढस्वगिरम् मम बाधयन्ती मधियम् मधुजुरि भजोषणाम् यो विश्वाभिपश्यति भुवनासम् च पश्यति स नः पूषा पिता भूपत् देवस्य स पितुर्भजम् वा जयन्तः पुरम् जा भगस्य रातिमीमहे देवम् नरस्य वितारम् विप्रायज्ञैः स्ववृत्तिभिः नमस्यन्ति धियेषिताः सोमो जिगादिगादिभिद्देवानाम् वेदशयोनिवासतम् सोमो अस्मभ्यम् द्विपदे च दुष्पदे च पशवे अनमेवायुषस्करत् अस्माकमायुर्वर्धयन्नभिमादेः सह मानः सोमः सधस्थमासदत् आ नो मित्रावरुणा घृतैर्गव्योदिमुक्षतम् मध्वारजांसि सुक्रतु पुरुषम् दानमो वृधा मह्ना रक्षस्य राजसः ग्राघिष्टाभिः सुजव्रता घृणानाजमदग्निनायो नामृतस्य सीदतम् पातम् सोमावृता वृधा विश्वेश्वराय नमः ज्ञेशमित्समञ्जवो देवासो देववरदिन्ये ऋणजि दिक्रत्वान्ये ऋणे అమర్త్యంజయమత్యేష్దేవమాదేవంజనదప్రచేదసం విశ్వమాదేవంజనదప్రచేదసం సభ్రాదరం వరుణమగ్నావృత్సదేవాసుమతి యజ్ఞవనసం జ్యేష్టం యజ్ఞవనసం ఋతమానమాదిత్యం చర్షణీ ధృతం రాజానం చర్షణీ ధృతం సఖే సఖాయమభ్యవృత్స్వాసృంగచక్రం రక్షే వరం హ్యాస్మభ్యం దస్పరం హ్యా అగ్నే మృళీకం వరుణే సచారితో మరుత్సు విశ్వభానుషు శోకాయ తుచేసుృధ్యస్మభ్యం దస్మ సంగృధి మన్నా అగ్నే వరుణస్య విద్వాన్ దేవస్య హేరోపజాసిష్టా విశిష్టో వన్నీతమస్వోసూచానో విశ్వాద్వేషాంసి ప్రమోధ్యస్మత్ సత్మన్నా అగ్నే వమోభూతిష్టో అసోభ్యోష్టౌ అవయక్ష్మణో వరుణం వరాణో భీమృలీకం సుభవో నలేధి అస్య శ్రేష్టా సుభగస్య సంద్రగ్దేవస్య చిత్రత మామర్త్యేషు శ్రీఘృతన్న దత్తమజ్ఞాయ స్వార్గదేవస్య మంహనే వధేనోః త్రిగస్య తపరమాసంది సత్యా స్వార్గదేవస్య జనీమాన్యగ్నేః అనంతే అంతః పరివేదాగాచ్ఛతి శుక్రో అర్యోరోరుచానః సదూతో విశ్వేదభివక్తి సద్బాహోదాహిరణ్యరథోరం సూజిహ్వః లోహితస్వాపపుష్యో విభావా సదారణ్వహ్తి తుమదేవ సంసత్ సదేతజన్మనుషో యజ్ఞబంధఃప్రదం హ్యారధనజారయంతి సక్షేత్యస్య దుర్యాసు సాధన్ దేవోమర్తస్య సదనిత్వమాప సదూరో అగ్నిర్న యదు ప్రజానన్నచ్చారత్నం దేవభక్తం యదస్య ధియాయద్విశ్వే అమృతాగ్నిన్నాంజౌష్పిత జనిత సత్యముక్షన్ సయాయత ప్రథమః పశ్చాసు మహో బుద్ధేరజసు అస్య యోనౌ అపాదశీర్షగుహమానో అంతాయో యూవానో వృషభస్య నీడే ప్రసర్ధ ఆర్త ప్రథమం విపన్యాస్యోనా వృషభస్య నీడే స్వాహోయువాపుష్యో విభావా సప్త ప్రియాదో జనయంత వృష్ణే అస్మాకమత్ర పితరో మనుష్యా అభిప్రదేదుర్మృతమాసుషానా అస్మవ్రజా సుదుఃఖా భవ్రే అంతరు దుస్రాజన్నుషసోహుబానా తే మన్మృజగతవాంసో అద్రింతదేడా మన్యే అభితో వివోచన్ అశ్వయం రాసో అభికారమచ్చన్ విదంత జ్యోతిష్ట కృపంత దీభిః ఏకౌ యదామనసా దృఢముగ్ధం గాయే మానం పరిషంతమద్రిం దృఢన్నరోపచ సాదైర్యేణ ప్రజంగో మంతముషిజో వివౌరుః